योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयति अखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान् नमो भगवते पुरुषाय तुभ्यम्। या सत्संस्कृति संप्रदाय जननी या सर्वविद्या प्रसूः या देशस्य जनस्य सर्ववचसाञ्च ऐक्यप्रदानोद्यता या वेदोपनिषत्पुराणचय सत्काव्यश्रिया राजते सा भाषाद्युसदां सदा विजयताम् आचन्द्रतारारुणम्। रत्नाकराधौतपदां हिमालयकिरीटिनीं ब्रह्मराजऋषिरत्नाढ्यां वन्दे भारतमातरम् वन्दे भारतमातरम्। ओं नमः कणाद गौतम वात्स्यायनादिभ्यः न्यायशास्त्र संप्रदाय कर्तृभ्यः वंशऋषिभ्यः मुनिभ्यो गुरुभ्यः। यः परमात्मा अस्माकं सकलविध बुद्धिः प्रेरयति सर्वाणि इन्द्रियाणि प्रवर्तयति तस्य परमात्मनः श्रेष्ठं तेजः ध्यायन्तः। वयं भारतीयसाहित्ये विशेषेण संस्कृतसाहित्ये विद्यमानानां ऋषीणां महात्मनां अत्यन्त बुद्धि शक्ति धैर्यादिभिः संपादितानां विज्ञानानां सर्वेषामपि अंशानां किञ्चित् अध्ययनं कर्तुं प्रवर्तामहे। तत्र न्यायशास्त्रस्य विशेषपरिचयः करणीयः अस्ति। आदौ सङ्ग्रहेण न्यायशास्त्रस्य तत्त्वं किं स्वरूपं किम् इत्यादि वयं विचारयामः। न्यायशास्त्रस्य चरित्रं तु बहु विशालं वर्तते, तस्य महिमा अपि महान् वर्तते। गौतमः कणादः वात्स्यायनः इत्यादयः प्राचीनाः ऋषयः एतस्य शास्त्रस्य मूलप्रवर्तकाः। एवं तस्यैव न्यायशास्त्रस्य आधारभूताः इतोपि उदयनाचार्यः इत्यादयः बहवः आसन् पूर्वे। किञ्चित् मध्ये काले गङ्गेशोपाध्यायः, रघुनाथः, एवं जगदीशः, गदाधरः, मथुरानाथः इत्यादयः बहवः अत्यन्त आधुनिकन्यायशास्त्रस्य वृद्धिकारकाः प्रवर्तकाः अपि सन्ति। विशेषेण काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति अस्माकम् एकम् आभाणकं वर्तते। काणादम् इत्युक्ते केवलं कणादप्रणीतमेव शास्त्रं न, तत् गुरुपरम्परया प्राप्तं सर्वं शास्त्रं न्यायशास्त्रमित्येव अस्माभिस्तत्र स्वीकरणीयम्। पाणिनीयमित्युक्ते अपि महर्षिणा पाणिनिना रचितम् अष्टाध्यायीमात्रं न स्वीकरणीयम्। एवम् अनन्तरं भाष्यकाराः, वार्तिककाराः, एवम् अन्ये भट्टोजिदीक्षितादयः, एवं तत् शास्त्रप्रवर्तकाः महर्षयः बहवः स्वीकर्तुं शक्यन्ते, पण्डिताः अपि तत्र अस्माकम् अत्यन्तं ग्राह्याः. विशेषेण प्रथमं न्यायशास्त्रम् अधिकृत्य किञ्चिद्वयं चिन्तयामः. न्यायशास्त्रमित्येतत् प्रमाणशास्त्रमिति उच्यते. प्रमाणशास्त्रं नाम प्रप्रथमतया प्रमाणानां प्रामाण्यम् एतद्द्वारा एव साधितं, न्यायशास्त्रद्वारा एव. यद्यपि प्रमाणं पूर्वमपि आसीत् पूर्वमपि अस्ति, किन्तु प्रमाणस्य प्रामाण्यं निरूपितमिति कारणतः एतस्य शास्त्रस्य प्रमाणशास्त्रम् इति नाम. प्रमाणस्य प्राधान्यं चिन्तयित्वा न्यायशास्त्रस्य भाष्यकारः वात्स्यायनः प्रथममेव एकं वाक्यं वदति, प्रमाणतः अर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् अर्थवत् प्रमाणम् इति. प्रमाणतः एव अर्थस्य प्रतिपत्तिर्भवति, अर्थस्य ज्ञानं भवति. अतः प्रमाणद्वारा एव अर्थज्ञानं भवति, अर्थज्ञानद्वारा एव प्रवृत्तिर्भवति. अतः सर्वस्याः अपि प्रवृत्तेः मूलकारणं प्रमाणं भवति. अतः प्रमाणं विना किमपि वयं साधयितुं न शक्नुमः इति एतद्वाक्यमेव आधारीकृत्य, एतद्वाक्यं प्रमाणीकृत्य अनन्तर जनाः सर्वेपि एतस्य प्रमाणशास्त्रमिति नाम कृतवन्तः. अतः एतस्य नाम प्रमाणशास्त्रमिति. अन्यदपि एकं नाम वर्तते तर्कशास्त्रमित्यपि. तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः. तर्काः इत्युक्ते पदार्थाः, पदेन ज्ञातुं योग्याः, एवं शब्देन वक्तुं योग्याः ये पदार्थाः सन्ति ते पदार्थाः सर्वेपि तर्कशब्देन उच्यन्ते. अतः तर्कशास्त्रम् इत्यपि, पदार्थानां तत्त्वनिरूपकं शास्त्रमिति कारणतः एतत् तर्कशास्त्रमित्यपि उच्यते. न्यायशास्त्रमित्यपि अस्यैव अन्यत् नाम. प्रमाणैः अर्थपरीक्षणं न्यायः. प्रमाणानि चत्वारि, सामान्यतः सर्वसम्मतानि प्रमाणानि त्रीणि चत्वारि सन्ति. विशेषेण न्यायशास्त्रकाराः चत्वारि प्रमाणानि अङ्गीकुर्वन्ति, वैशेषिकशास्त्रकाराः तत्र उपमानप्रमाणम् अनुमानप्रमाणे एव अन्तर्भावयन्ति. इति कारणतः त्रीण्येव प्रमाणानि तैः स्वीकृतानि. अतः एतानि सर्वाण्यपि प्रायशः सर्वशास्त्रेषु सम्मतानि इति कृत्वा वयम् अस्य एतैः प्रमाणैः अर्थस्य परीक्षणं क्रियते इति कारणतः प्रमाणैरर्थपरीक्षणमेव न्यायः इति कारणतः एतत् न्यायशास्त्रमिति अस्माभिरुच्यते. न्यायशास्त्रमिति वक्तुम् अन्यदपि एकम् अत्र चिन्तनीयमस्ति. ఏకస్య విషయస్య ప్రతిపాదనార్థం అవశ్యం పంచావయవ ప్రయోగ కర్తవ్యః భవతి. ఏకః జ్ఞాతుం ఇచ్చతి, అన్యః తం ప్రతి బోధయతి. బోధకః ప్రథమం జ్ఞాతవ్యం అంశం శబ్దేన సూచయతి. కింతు శ్రోతుః సద్యః తత్ర తృప్తిర్న భవతి. సః హేతు విచారం కర్తుం ఇచ్చతి, అతః హేతుః ప్రతిపాదనీయః భవతి. యత్ హేతుః ప్రతిపాద్యతే ఏకస్య విషయస్య నిరూపణార్థం ఇత్యుక్తే తదేవ అనుమాన ప్రమాణం భవతి. శ్రోతుః తథాపి తృప్తిః న భవతి, కిమపి సాదృశ్యం అపేక్షతే సః. అతః సాదృశ్య జ్ఞానార్థం ఏకస్య శబ్దస్య ప్రయోగం కరోతి. తద్వారా తత్ సాదృశ్యేన విషయం అవగచ్చతి శ్రోత. కింతు తదాపి సహ తృప్తిం న ప్రాప్నోతి. అనంతరం స్వయం గత్వా ప్రత్యక్షం ప్రమాణం ఇచ్చతి. అతః ప్రత్యక్షతః యదా సహ జానాతి తస్య మనసి సందేహాః సర్వోపి అపగచ్చతి. ఏతేషాం చతుర్నామపి అంశానాం ఇత్యుక్తే ప్రథమం యద్వాక్యం ప్రయుక్తం సయేవ శబ్దప్రమాణం, ద్వితీయం యత్ హేతునిరూపణం కృతం తదేవ అనుమానం ప్రమాణం, తృతీయం యత్ సాదృశ్యం నిరూపయితుం ప్రయత్నః కృతః తత్ తదేవ ఉపమాన ప్రమాణం, అనంతరం ప్రత్యక్షం యద్దృష్టం తత్ ప్రత్యక్షం ప్రమాణం. ఏతేషాం సర్వేషామపి ఏకార్థబోధకత్వం యదస్తి తదేవ న్యాయశబ్దేన ఉచ్యతే. న్యాయశాస్త్రే ఏతాదృశీ ప్రక్రియ సర్వత్ర వ్యాప్తా వర్తతే ఇతి కారణతః ఏతస్య శాస్త్రస్య న్యాయశాస్త్రం ఇతి వ్యవస్థాపనం కృతం. అత్ర ప్రథమతయా జ్ఞాతవ్యాః కేచన అంశాః సంతి. జ్ఞాతవ్యాః అంశాః కే? యే జ్ఞాతవ్యం యే జ్ఞేయం సయేవ పదార్థః ఇతి సిద్ధాంతః. పదేన జ్ఞాతుం యోగ్యః పదార్థః సహ ప్రమాణేన ఏవ భవతి, వినా ప్రమాణం కిమపి న భవతి. అతః జ్ఞాతుం యోగ్యః యః భవతి సహ పదార్థః. అతః కిం జ్ఞాతుం యోగ్యం ఇతి చింతితం. సప్త విషయాన్ వయం జానీమః తర్హి సర్వం జ్ఞాతం భవతి ఇతి ఏకః సిద్ధాంతః తత్ర ఆవిర్భూతః. అన్యః అపి ఏకః సిద్ధాంతః ఆవిర్భూతః. ఏకస్యైవ పదార్థస్యైవ జ్ఞానం పర్యాప్తం, తస్య నామ ప్రమేయం ఇత్యేవ. యద్ జ్ఞాతుం భవాన్ ఇచ్చతి తత్ సర్వం ప్రమేయమేవ భవతి. అతః ప్రమేయమాత్రం పర్యాప్తం ఇతి అన్యః సిద్ధాంతః తత్ర ప్రాప్తః. అతః ప్రమేయస్య జ్ఞానార్థమేవ జ్ఞాతవ్యస్య జ్ఞానార్థమేవ సర్వోపి అయం ప్రయత్నః ఇతి అస్మాభిః తర్కశాస్త్రకారైః సమ్యక్ చింతనం కృతం. ప్రమేయం జ్ఞాతవ్యం, తర్హి తస్య ప్రమాణమపి అపేక్షితం భవతి. అతః ఏక ఏవ పదార్థః న పదార్థద్వయం. తర్హి ప్రమేయం ప్రమాణం సర్వత్రాపి శాస్త్రేషు అస్తి, అస్మాకం శాస్త్రస్య कहा विशेषः इति पुनः आलोच्य शास्त्रकाराः संशय प्रयोजन दृष्टांत सिद्धांत अवयव तर्क निर्णय वाद जल्प वितंडा हेत्वाभास छल जाति निग्रह स्थानानि अंगीकृतवन्तः चतुर्दश पदार्थाः एते प्रमाणेन सह पञ्चदश प्रमेयेण सह षोडश अतः एते षोडशैव पदार्थाः ज्ञातव्याः इति सिद्धांतः अन्ते निर्णयत्वेन स्वीकृतः तर्हि सप्त पदार्थाः वास्तवभूताः वा षोडश पदार्थाः वास्तवभूताः वा इत्युक्ते सप्त पदार्थाः इति यया दृष्ट्या अस्माभिः चिन्त्यते तद्भिन्नया दृष्ट्या षोडश पदार्थाः इति ते एव पदार्थाः चिन्त्यन्ते इति यत्र कोऽपि विरोधः नास्ति सर्वे सप्त पदार्थाः ये सन्ति तेषु षोडश पदार्थाः अन्तर्भवन्ति ये षोडश पदार्थाः उक्ताः तेषु एते सप्त पदार्थाः अपि अन्तर्भूताः भवन्ति तेषाम् अवगमनम् अस्माकं मुख्यं कार्यम् तत्र प्रथमं षोडश पदार्थान् चिन्तयामः वस्तुतः प्रमेयमेकमेव इति अस्माभिः पूर्वं चिन्तितम् तस्य प्रमाणम् अत्यन्तम् आवश्यकमिति कृत्वा द्वितीयं प्रमेयान्तर्भूतमेव प्रमाणं पृथक्त्वेन आवश्यकतानुसारेण पृथक् स्वीकृतः प्रमाणं विना प्रमेयस्य सिद्धिर्न भवति मानाभावेन मेयसिद्धिर्न भवति अतः मानम् आवश्यकं पृथक् प्रमेयतः एव मानं पृथक् कुर्मः इति प्रमाणं स्वीकृतवन्तः एतत् शास्त्रं केवलम् आध्यात्मिकं शास्त्रं न भवति चर्चायाः कृते उपयोगिशास्त्रं भवेत् सर्वशास्त्रेष्वपि एतस्य शास्त्रस्य बलम् आवश्यकं भवति इति चिन्तयित्वा वादोपयोगीनि वस्तूनि अथवा वादोपयोगिनः केचन पदार्थाः अत्र अङ्गीकृताः यतः संशयं विना कुत्रचिदपि समाधानं न भवति प्रष्टा सन्देहं प्राप्य प्रश्नं कृत्वा अनन्तरं ज्ञातुं शक्नोति अतः प्रथमं मानसिकः संशयः एतत् किं युक्तं वा न युक्तं वा एतत् किं तत्त्वं कः एषः पदार्थः घटः वा अथवा अन्यः वा एषा प्रतिमा वा नो चेत् मनुष्यः वा इत्यादि सन्देहाः बहवः भवन्ति अतः तेषां सन्देहानां निवारणम् अनिवार्यं भवति इति विचारशास्त्रे अवश्यमेव संशयस्य प्राधान्यं भवति अतः संशयः इति एकः पदार्थः अङ्गीकृतः संशयः केवलं न भवति किमपि प्रयोजनम् अनुद्दिश्य संशयोऽपि न भवति अतः किं प्रयोजनं निमित्तीकृत्य संशयं प्राप्नोति अतः इत्येवं चिन्तयित्वा प्रयोजनमपि एकं पदार्थं स्वीकृतवन्तः कस्यचित् पदार्थस्य तत्त्वस्य वा निर्णयार्थं कश्चन दृष्टान्तः अपेक्षितः अतः प्रत्यक्षप्रमाणरूपः अन्यस्य कृते प्रबोधनार्थम् आवश्यकः इति कृत्वा दृष्टान्तः इति एकः पदार्थः स्वीकृतः वादः सर्वदापि मानसिकनिर्णयानुसारेणैव प्रवर्तते अतः सर्वस्यापि मनसि एकः अन्तः भवति अन्तः नाम निर्णयः सः सिद्धः निर्णयः सैव सिद्धान्तः इत्युच्यते। कश्चित् किमपि निर्णयं करोति स्वानुभवानुसारेण, सः सिद्धान्तः इत्युच्यते। अन्यः अपि स्वस्य स्वानुभवानुसारेण एकं निर्णयं करोति, अतः भिन्नभिन्नाः सिद्धान्ताः भवन्ति। अतः भिन्नभिन्नसिद्धान्तानां लोके विद्यमानत्वात् एव चर्चा भवति। अतः सिद्धान्तः इति एकः पदार्थः अङ्गीकर्तव्यः इति अत्र सिद्धान्त इत्यपि स्वीकृतः। तदनन्तरं एकस्य विषयस्य प्रतिपादनार्थं पञ्चावयवप्रयोगः कर्तव्यः, प्रतिज्ञा कर्तव्या। पूर्वमस्माभिरेतद्विषये प्रस्तावः कृतः इदानीमेव। प्रतिज्ञा इत्युक्ते विषयस्य प्रतिपादनम्, अतः प्रतिज्ञा आवश्यकी। तस्य हेतुः वक्तव्यः अनुमानप्रमाणरूपः, प्रतिज्ञा शब्दप्रमाणरूपः, हेतुः अनुमानप्रमाणरूपः, उदाहरणं प्रत्यक्षप्रमाणरूपम्, उपनयः उपमानप्रमाणरूपम्, निगमनं सर्वेषामपि प्रमाणानाम् एकस्मिन्नर्थे समन्वयनार्थं निगमनप्रमाणं निगमनमपि आवश्यकम् इति एकस्य निर्णयार्थं पञ्च अंशाः आवश्यकाः। अतः अवयवाः इति निर्णयार्थम् आवश्यकवाक्यप्रयोगसम्बन्धिनः अवयवाः इति कृत्वा अवयवः इति एकः पदार्थः अङ्गीकृतः। एषः सर्वोऽपि स्वस्व अनुभवानुसारेण जातस्य ऊहस्य कारणतः एव भवति। अतः ऊहः अपि एकः आवश्यकः। ऊहमेव तर्कम् इति वदन्ति, अध्याहारः तर्कः ऊहः इति। किन्तु एषः ऊहः प्रमाणं न भवति, प्रमाणस्य उपयोगी भवति इति कारणतः तर्कः इति ऊहः, स्वानुभवजनितः एकस्य विषयस्य प्रतिपादकः ऊहः अपि तर्कशब्देन अत्र स्वीकृतः। एषोऽपि पदार्थः आवश्यकः इति अङ्गीकृतः। एषः ऊहः सर्वोऽपि प्रमाणं सर्वमपि। यदा वादः जायते परस्परविरोधनिवारण अनन्तरं सर्वेऽपि एकस्य विषयस्य अङ्गीकारं कुर्युः इति सामान्यतः वादे लोकेऽपि सर्वेषां समन्वयमार्गः सिद्धः अस्ति। तं समन्वयमार्गं सिद्धं कर्तुम् अन्ते एकः निर्णयः भवेत्। यद्यपि स्वस्वसिद्धान्तः भिन्नः भवति, किन्तु निर्णयः पृथगेव भवति। निर्णयेनैव समस्यानां परिष्कारः भवति। निर्णयं विना कापि चर्चा समाप्तिं न गच्छति। अतः निर्णयः आवश्यकः। उभयोः सामरस्यम् अथवा बहूनामपि एकत्र सामरस्यं, यथा कुटुम्बे सामरस्यं, यथा कार्यक्रियासु सामरस्यं, तथा सामरस्यं प्रवर्तयितुं निर्णयः अत्यन्तम् आवश्यकः। अतः निर्णयः अपि एकः पदार्थः अङ्गीकृतः भवति। एषः सर्वोऽपि एकस्य विषयस्य प्रतिपादने वाग्व्यवहारे एतत् सर्वं सम्भवति। स च वाग्व्यवहारः त्रिविधः भवति। वादः इति निर्णयार्थमेव परस्परविरुद्धेषु अंशेषु सत्सु, निर्णयार्थमेव यः प्रवर्तते चर्चारूपः अंशः सः वादः इत्युच्यते। किन्तु सर्वत्र वादः न भवति। कुत्रचित् निर्णयः न भवति किन्तु परस्परं वाग्व्यवहारः भवति तत्र किं मुख्यं भवति इत्युक्ते तत्र किमपि मुख्यं न भवति केवलं जल्पः एव इति उच्यते यत्र निर्णयः न भवति स्वस्व सिद्धान्तस्य प्रतिपादनमेव परसिद्धान्तस्य अङ्गीकारः न भवति निर्णयस्य अन्ते स्थितिः न भवति तादृशदशायां जल्पः इति उच्यते स्वयं निर्णयः न भवति जल्पः भवति किन्तु निर्णयः न स्वीकरणीय एव इति भावना भवति एकमपि वचनं परकीयं नाङ्गीकर्तव्यम् इत्येव उद्देशेन कदाचित् व्यवहारः प्रचलति कुत्रचित् स्वस्व मनोवृत्त्यनुसारेण तादृशदशायां केवलं परवचनखण्डनमेव यत्र भवति वाग्व्यवहारे तदुच्यते वितण्डा इति अन्यस्य वचनं खण्डयति वादे परस्परखण्डनम् अस्तु नाम किन्तु अन्ते प्रमाणान्वितम् एकं निर्णयं स्वीकुर्वन्ति तत्रत्याः सर्वेपि पक्षजनाः भिन्नभिन्नपक्षजनाः जल्पे परस्य विजयार्थमेव प्रवर्तनं भवति किन्तु तत्रापि कदाचित् अनुकूलतायां निर्णयः भवति प्रतिकूलतायां निर्णयः न भवति वितण्डायां तु निर्णय एव न भवति सर्वदा प्रतिपक्षदूषणमेव तत्र इति कृत्वा वितण्डा इति एकः पदार्थः ज्ञातव्यः अंशः इति अङ्गीकृतः एवं वादजल्पवितण्डाः त्रिविधाः कथाः इत्युच्यन्ते कथाः इत्युक्ते व्यवहारे विषयचर्चायां प्रवर्तमानाः त्रिविधाः अंशाः त्रिविधाः अनुभवाः एते तत्र समीचीनः हेतुः अस्ति चेत् सम्यक् वादः इति वक्तुं शक्यते कुत्रचित् समीचीनः हेतुः न भवति समीचीनः हेतुः न भवति किन्तु हेतुवत् दृश्यते हेतुमिव दर्शयति कश्चन वादी अतः सः हेतुर्न भवति वस्तुतः अनुमानप्रमाणमपि न भवति प्रमाण आभासत्वं दर्शयति इति कारणतः हेत्वाभासः अपि एकः पदार्थः आवश्यकः केचन केवलं वञ्चनापराः भवन्ति परस्य वचनशैलीखण्डनं परस्य वचनखण्डनं एकस्मिन् सन्दर्भे वदति तर्हि अन्यसन्दर्भचिन्तनं कृत्वा तस्य वचनखण्डनं यथा अन्यः मुखपिधानं करोति तथा एव प्रवर्तन्ते कुत्रचित् जनाः एतदुच्यते छलम् इति अतः तादृशछलमपि अत्यन्तम् आवश्यकं भवति कुत्रचित् जातिः इति एकः दोषनिरूपणप्रकारः अस्ति जातिः इत्युक्ते सर्वदापि दोषाणां कल्पनमेव जातिः इत्युच्यते दोषाणां कल्पनं वस्तुतः दोषः न भवति दोषाणां कल्पनमेव जातिः अतः जातिरिति एकः पदार्थः अङ्गीकर्तव्यः इति निग्रहस्थानमित्येकं प्रतिभायाः न्यूनतायां सत्यां प्रतिभा न्यूनतां पुरस्कृत्य विजयं प्राप्तुं ये ये प्रयोगाः क्रियन्ते ते प्रयोगाः निग्रहस्थानानि इति उच्यन्ते प्रतिभायाः न्यूनताकारणतः जातौ प्रतिभायाः न्यूनता कारणं न भवति निग्रहस्थाने तु प्रतिभायाः न्यूनता कारणं भवति अतः निग्रहस्थानमपि एकं पदार्थम् अङ्गीकुर्वन्ति एवं रीत्या వాద విచార వాదశాస్త్రం ఏతత్ జాతం న్యాయశాస్త్రమేవ క్రమేణ వాదశాస్త్రం జాతం యత్ర తు కేవలం ఆధ్యాత్మికత్వమేవ స్వీకృతం తత్ర తు ప్రమేయం ఇతి ఏక ఏవ పదార్థః పర్యాప్తః ఇతి న్యాయశాస్త్రకారాణాం ఏకః సమీచీనః నిర్ణయః. తర్హి కిం తత్ ప్రమేయం ఇతి పునః తత్ర చింతనం భవతి. ఆత్మ శరీర ఇంద్రియ అర్థ మనః ప్రవృత్తి ప్రేత్యభావ ఫల దుఃఖ అపవర్గాః ఇతి ఏతే ద్వాదశ ప్రమేయాః భవంతి. ఆత్మ శరీర ఇంద్రియ అర్థ బుద్ధి మనః ప్రవృత్తి దోష ప్రేత్యభావ ఫల దుఃఖ అపవర్గాః ఇతి ద్వాదశ ప్రమేయాః ఏతే జ్ఞాతవ్యాః ఇతి న్యాయశాస్త్రజ్ఞానం ప్రధాన అంశః. ఆత్మజ్ఞానం ప్రాప్తవ్యం. కః ఆత్మా ఇతి జ్ఞాతవ్యం. శరీరం కిం ఇతి జ్ఞాతవ్యం. యతః ఆత్మా అనుభవే యద్యపి అస్తి సర్వేషాం, ఆత్మా అనుభవే అస్తి సర్వేషాం, తథాపి కః ఆత్మా ఇతి నిర్ధారణం కర్తుం న శక్నోతి. తత్ర శరీర అభిమానః సర్వేషామపి అస్తి. అతః శరీరమపి ఏకం జ్ఞాతవ్యం తత్వం. ఇంద్రియాణ్యపి శరీరం ఇంద్రియం భిన్నం వా ఏకం వా ఇది పునః సందేహా భవతి. అతః భిన్నమేవ భిన్నమేవ ఇది అనుభవానుసార భిన్నమేవ ఇది అనుభవానుసారేణ ఇంద్రియాణ్యపి స్వీకరణీయాని. ఇంద్రియాణి యదా స్వీకృతాని ఇంద్రియాణాం విషయాః అపి స్వీకరణీయాః భవంతి. అనంతరం ఏతేషాం సర్వేషాం జ్ఞానం యత్ తత్ ముఖ్యం భవతి. అతః బుద్ధిరపి స్వీకరణీయా భవతి. మనః కారణతః ఏవ సర్వమపి ఏతద్ జ్ఞానం భవతి ఇతి కారణతః మనః అపి ఏకః పదార్థః స్వీకరణీయః. మనసా ఏవ సర్వ క్రియాః ప్రవర్తంతే. ఆత్మా మనసా సంయుజ్యతే మన ఇంద్రియేణ ఇంద్రియమర్థేన తతః జ్ఞానం తతః ఇచ్ఛ తతః ప్రవృత్తిః భవతి. అతః సర్వేషామపి ప్రవృత్తిః మానసికీ ప్రవృత్తిః వాచికీ ప్రవృత్తిః శారీరికీ చ ప్రవృత్తిః వర్తతే. ఏవం త్రివిధాయా ప్రవృత్తిః తస్యాః ప్రవృత్తేః కారణం మనః. అతః మనః అపి అంగీకర్తవ్యం ప్రవృత్తిరపి అంగీకర్తవ్య. ప్రవృత్తిః ఇత్యుక్తే క్రియ చేష్ట. తదనంతరం ప్రవృత్తి ఏతస్యాః సర్వస్యాః ప్రవృత్తేః కారణం కిం ఇత్యుక్తే దోష ఏవ కారణం ఇతి వదంతి నైయాయికాః. దోషః నామ కిం? రాగః ద్వేషశ్చ. రాగః ద్వేషః ఏవ ప్రవృత్తేః కారణం ఇతి కారణతః తయోరపి పదార్థత్వం ఆవశ్యకం. అతః తయోర్ద్వయోః అపి దోష నామ్నా పదార్థత్వం స్వీకృతం. దోషః దోషద్వారా ప్రవృత్తిః ప్రవృత్తిద్వారా జన్మ భవతి. అతః జన్మ అపి అనివార్యం భవతి. ఏతజ్జన్మ అస్మాకం యదస్తి तत् गतजन्मनः कारणतः एव एतत् जन्म इति शास्त्रमर्यादा अनुभवमर्यादा अतः पुनर्जन्म इत्येव वक्तव्यं यः कश्चिदपि पुनर्जन्म प्राप्तवान् एतावत्पर्यन्तम् अग्रे पुनर्जन्म भविष्यति वा न वा एतत्तु निर्धारयितुं न शक्यते किन्तु इदानीम् अहं दुःखम् अनुभवामि इति सर्वस्यापि अनुभवः दुःखं नाम किम् जनः चिन्तयति सुखं दुःखं भिन्नम् इति नैयायिकाः चिन्तयन्ति सुखमपि फलमेव न दुःखं दुःखमपि फलमेव दुःखमिति यदुच्यते तद्भिन्नमेव अस्ति फलमेव वयं सुखं किमपि निमित्तं पुरस्कृत्य प्राप्तं सुखमिति वदामः किमपि निमित्तं पुरस्कृत्य प्राप्तं दुःखमिति वदामः अतः सुखमपि फलं निमित्तं पुरस्कृत्य प्राप्तमिति कृत्वा फलं दुःखमिति यत् लोके व्यवह्रियते तदपि किमपि निमित्तं पुरस्कृत्य प्राप्तं फलमिति कारणतः सुखं दुःखं च लोके यद् व्यवह्रियमाणमस्ति तत् फलम् इति चिन्तयित्वा फलमिति एकं पदार्थम् अङ्गीकृतवन्तः प्रमेयम् किन्तु वस्तुतः एतत् सुखं दुःखम् एतद्वयमपि वस्तुतः दुःखमेव अतः यतः दुःखम् इत्युक्ते अस्माकम् अज्ञानतः अस्माकं प्रवृत्त्या अस्माकं रागद्वेषाभ्यां यद्यज्जायते फलं तत्फलेन च निरन्तरं सम्बद्धाः वयम् अज्ञानेन सम्बद्धाः यदा अज्ञानेन सम्बद्धाः तदा एव दुःखम् आरब्धम् अस्माकम् अतः सर्वमिदं जगत् दुःखमयम् इति कदाचित् सर्वोऽपि सर्वस्मिन्नपि काले चिन्तयति अतः दुःखमिति एकं तत्त्वमपि प्रत्येकशः अङ्गीकर्तव्यम् पुनः चिन्तनेन आलोचितं दुःखमपि किमर्थं चिन्तनीयम् इत्युक्ते दुःखस्य निवारणार्थमेव दुःखं चिन्तनीयं सर्वं दुःखमिति यदा चिन्तनं करोति तदा एव दुःखस्य निवारणं करणीयमिति चिन्तयति अतः सर्वस्यापि दुःखनिवारणार्थम् एकं लक्ष्यम् आवश्यकं स एव अपवर्गः मोक्षः इति उच्यते एवं रीत्या द्वादशप्रमेयाः अङ्गीकृताः अतः आत्मा शरीर इन्द्रिय अर्थ बुद्धि मनः प्रवृत्ति दोष प्रेत्यभाव फल दुःख अपवर्गाः प्रमेयम् इति एतेषां सर्वेषामपि प्रमेयत्वेन नामकरणं कृतम् किमर्थम् एतत् प्रमेयम् एतत् सर्वमपि ज्ञानं किमर्थम् इत्युक्ते सर्वोऽपि दुःखाभावम् इच्छति तदर्थं दुःखं कथमागतमिति चिन्तनं करणीयम् मिथ्याज्ञानेनैव दुःखप्राप्तिः मिथ्याज्ञानं न अन्यस्य अन्यधर्मारोपः एव मिथ्या ज्ञानम् आत्मानं शरीरं चिन्तयामः शरीरम् अनात्मानं चिन्तयामः सः प्रथमं दुःखस्य हेतुः अज्ञानम् एवम् इन्द्रियाणि शरीरं चिन्तयामः शरीराणि इन्द्रियाणि चिन्तयामः किं शरीरं किम् इन्द्रियमिति वयं न जानीमः अर्थाः शाश्वताः इति चिन्तयामः एते इन्द्रियविषयाः शाश्वताः इति चिन्तयामः यद् रूपं रसः गन्धः स्पर्शः शब्दः इत्यादयः पदार्थाः सन्ति ते सर्वेपि वस्तुतः अशाश्वतः किन्तु एतान् सर्वान् शाश्वतान् चिन्तयामः एतेषां वलये प्रविष्टाः बहिरागन्तुं न शक्नुमः अतः विषयाः शाश्वताः इति भावनमपि एकं मिथ्याज्ञानम् अतः एतेषां तत्त्वज्ञानम् आवश्यकम् आत्मा भिन्नः शरीरं भिन्नम् इन्द्रियाणि भिन्नानि इन्द्रियविषयाः अपि भिन्नाः विषयाः अशाश्वताः एतेषां तत्त्वज्ञानम् अपेक्षितं भ्रमज्ञानं न भवेदस्माकम् इति चिन्तनं कृत्वा गुरुपदेशं प्राप्य कणाद महर्षिं वा गौतम महर्षिं वा पूर्वे सर्वेपि प्राप्तवन्तः आश्रितवन्तः तेषाम् उपदेशानुसारेण सर्वेपि तदुपदिष्टम् अंशं सर्वं सम्यक् स्वीकृतवन्तः तद्वारा कृतार्थाः जाताः यः उपदेशः तैः प्राप्तः सः उपदेश एव एतत् न्यायशास्त्रमित्युच्यते अथवा वैशेषिकशास्त्रमिति उच्यते एतज्ज्ञानेन मिथ्याज्ञानम् अपगच्छति मिथ्याज्ञानस्य यदा अपगमः भवति तदा एषः मदीयः एषः अन्यदीयः इति भेद दोषः अपगच्छति भेददोषः इत्युक्ते रागद्वेषकारकः दोषः अस्माकं शरीरमात्मा इति चिन्तनं भवति शरीरसम्बन्धिनः जनाः अस्मदीयाः इति भावना भवति शरीर असम्बन्धिनः जनाः अन्ये इति भावनं भवति एतदिष्टम् एतद् न इष्टम् इत्येवं सर्वेषु पदार्थेषु अस्माकं भेदभावनां कल्पयित्वा भेदभावनां सृष्ट्वा तत्र एकस्मिन् रागं कुर्मः अन्यस्मिन् द्वेषं कुर्मः अतः रागद्वेषकारणतः एव एतत् सर्वं प्रवृत्तम् अस्ति प्रवृत्तिर्भवति प्रवृत्तिद्वारा रागद्वेषेण वयं प्रवर्तामहे नाम किमपि कार्यं कुर्मः कुत्रचित् प्रेम भवति किमपि दद्मः कुत्रचित् द्वेषः भवति कमपि वयं पीडयामः पीडनेन पापं भवति प्रीणनेन पुण्यं भवति एवं पीडनं प्रीणनं पुण्यपापकरं भवति पुण्यं पापं च सुखदुःखकरं भवति इत्युक्ते पुण्यफलरूपं भवति एवं रीत्या मनुष्यः निरन्तरं पुण्यफल अनुभवं पापफल अनुभवं कुर्वन् वर्तते अतः एतत् जटिलत्वं प्राप्तवान् स्वयम् अतः तत्र बहु सम्यक् चिन्तनं करणीयमस्ति तत्त्वं ज्ञातव्यं शरीरं शरीरत्वेन पश्यामः चेत् रागः द्वेषः अपि न भवति इन्द्रियाणि इन्द्रियत्वेन पश्यामः अर्थान् अर्थत्वेन पश्यामः शरीरमहमिति न चिन्तयामः अहमात्मा सर्वत्र व्याप्तः वर्तते सर्वमपि मदीयम् आत्मा सर्वत्र व्याप्तः भवति शरीरम् अस्माकं शरीरं परशरीरम् इति भेदः अनावश्यकः एवम् अत्र प्रेम अन्यत्र द्वेषः इत्यपि नावश्यकः यतः सर्वाणि शरीराणि न आत्मानः एते सर्वेपि अतः आत्मा भिन्नः शरीरं भिन्नमिति ज्ञातव्यम् इन्द्रियं भिन्नम् इति ज्ञातव्यम् विषयः भिन्नः इति ज्ञातव्यः सर्वत्र तादात्म्यं त्यक्तव्यं तत्र आवश्यकताम् अनुसृत्यैव तत्र चिन्तनं करणीयम् अतः एतत् मदीयः परकीयः इति रागः द्वेषः त्यक्तव्यः यदा रागः द्वेषः अपगच्छति प्रवृत्तिरेव न भवति यदा प्रवृत्तिर्न भवति तदा पुण्यं पापम् इत्येतत् अस्माकं मनसि अथवा अस्माकम् आत्मनि या तत्तत् फलानुभवयोग्यता वर्तते सा योग्यता अपि अपगच्छति योग्यता यदा अपगच्छति पुण्यपापकृत्वं यदा अपगच्छति प्रवृत्तिः यदा अपगच्छति तदा सुखं दुःखम् अपि न भवति सुखं दुःखम् उभयं यदा न भवति तदा दुःखमपि न भवति अतः दुःखस्य अभाव एव परमः पुरुषार्थः सर्वैरपि साधनीयः इति अत्र न्यायशास्त्रे एकः परमः सिद्धान्तः सुखं किमपि प्रत्येकं तत्त्वं नास्ति यद्यपि वयं सुखमिति चिन्तयामः तत् सुखं परमलक्ष्यं न सर्वमपि सुखमिति यद्यत् चिन्त्यते तद् निमित्ताधीनं सुखमिति कारणतः तत् सर्वमपि सुखं निमित्ताधीनं सुखं चेत् स्वर्गादि सुखमपि त्यक्तव्यमेव अतः निमित्ताधीनं दुःखं यथा त्यक्तव्यं निमित्ताधीनं सुखमपि त्यक्तव्यमिति या बुद्धिः वर्तते सा बुद्धिः सर्वत्र दुःखत्वं सूचयति अतः सर्वत्र दुःखत्वम् अस्ति इति कारणतः एतत् जगदेव दुःखमयम् अतः आत्मज्ञानं विना एतस्य जगतः दुःखाभावानुभूतिः न भवति अतः सर्वं दुःखं त्यक्तव्यं तच्च तत्त्वज्ञानेन भवति अतः दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायात् अपवर्गः इति न्यायशास्त्रसिद्धान्तः एष एव सिद्धान्तः वैशेषिकाणामपि एष एव सिद्धान्तः किन्तु प्रमेयाणां विभागे कश्चन भेदः अस्ति तत्र प्रमेयाः सप्तैव इति वस्तुतः षडेव इति कणादमहर्षेः अभिप्रायः षट् पदार्थाः के षट् प्रमेयाः इति षट् च पदार्थाः सन्ति द्रव्य गुण कर्म सामान्य विशेष समवायाः इति षट् पदार्थाः एतेषां पदार्थानां तत्त्वज्ञानेन मोक्षप्राप्तिर्भवति इति वदन्ति षट् पदार्थाः एतेव भावशब्देन उच्यन्ते षट् भावाः अस्ति इति लोके प्रयोगः अस्ति अतः सत्त्वम् एव पदार्थस्य लक्षणम् पदार्थस्य किं लक्षणम् इत्युक्ते सत्त्वम् सत्त्वमेव भावत्वम् अतः यद्यदस्ति इति वदामः तत् अस्माकं जिज्ञासा अत एव उदेति जिज्ञासा कुत्र उदेति इत्युक्ते किम् अस्ति किं नास्ति इत्यत्रैव जिज्ञासा उदेति अतः सत् सत् सद् इति यत्र यत्र प्रयुज्यते स सर्वोऽपि सदिति उच्यते अतः सदपेक्षया अन्यः पदार्थः नास्ति किन्तु नास्ति इति शब्दः अपि एकः अस्माभिः प्रयुज्यते किं नाम नास्ति इति शब्दस्य अर्थः इत्युक्ते सदः सतः अभाव एव सत्त्वस्य अभाव एव नास्ति इति शब्दस्य अर्थः अत एव अनिवार्यतया अभावः इति एकः पदार्थः अङ्गीकर्तव्यः आपतितः वैशेषिकैः अथवा कैश्चित् न्यायशास्त्रज्ञैः अतः यदस्ति सः पदार्थः इति सत्त्वं पदार्थस्य लक्षणं वक्तुं सिद्धं तदा नास्तीत्यपि एकः शब्दः प्रयुज्यते इति कारणतः असत्त्वमपि एकं तत्त्वं तैः आविष्कृतम् एतावता भावः इति एकः पदार्थः अभावः इति एकः पदार्थः द्वौ पदार्थौ सृष्टौ पुनरपि तैः आलोचनं कृतं तर्हि के के भावाः इति भावत्वं कुत्र कुत्र वर्तते इति पुनः चिन्तनं जातं सर्वेपि भावाः इति लोके अनुभवः नास्ति केचन द्रव्यरूपेण केचन गुणरूपेण केचन कर्मरूपेण केचन जातिरूपेण केचन विशेषरूपेण केचन सम्बन्धरूपेण च एते भावाः सन्ति इति एकः अनुभवः प्राप्तः प्रथमं यद्दृश्यं तत् द्रव्यं तद् वस्तु अस्ति इति चिन्तितं किं दृश्यते भूमिः दृश्यते जलं दृश्यते अग्निः दृश्यते वायुः अनुभूयते ఆకాశం అనుభూయతే తత్వపి విచారేణ కాలహాపి అనుభూత తత్వపి విచారేణ దిక్కపి అనుభూత ఏతత్ సర్వం కహ అనుభవతి ఇది పునః చింతనేన ఆత్మాపి అనుభూత ఏతస్య సర్వస్య చింతనస్యైవ నామాంతరం మనః అతః మనః అపి ఏకమస్తి ఇత్యేవం కేచన పదార్థానాం కేషాంచన పదార్థానాం సిద్ధిః అభవత్. అతః ఏతే సర్వేపి పదార్థాః ఏతే ఏవ ఇతి ప్రథమం భూమిః జలం తేజః వాయుః ఆకాశః ఆకాశః కాలః దిక్ ఆత్మ మనః ఇతి నవైవ వస్తూని సంతి నవైవ భావాః ఇతి ప్రథమం చింతితవంతః. కింతు పునః చింతనేన తేషాం భూమేః జలస్య చ కః భేదః జలస్య తేజసశ్చ కః భేదః తేజసశ్చ వాయోశ్చ కః భేదః వాయోః ఏవం ఆకాశస్య ఏవం కాలస్య దిశః కః భేదః ఇది చింతనేన తేషాం గుణభేదః అనుభూతః. గుణాః గుణానాం యదా తైః చింతనం కృతం తదా రూపం రసః గంధః స్పర్శః సంఖ్యా పరిమాణం పృథక్త్వం సంయోగః విభాగః పరత్వం అపరత్వం గురుత్వం ద్రవత్వం స్నేహః శబ్దః బుద్ధిః సుఖం దుఃఖం ఇచ్ఛా ద్వేషః ప్రయత్నః ధర్మః అధర్మః సంస్కారః సంస్కారోపి పునః త్రివిధః వేగః వేగః భావన స్థితిస్థాపకః ఇది సంస్కారః త్రివిధః ఇత్యపి అనుభూతః. తర్హి ఏతే చతుర్వింశతిః ఏవం నవచ ప్రమేయాః ఇతి జ్ఞానం. కింతు తదనంతరం తత్ర ఇతస్తతః పదార్థానాం అనుభవః దృష్టః. నామ యత్ర ఏకః పదార్థః స్థాపితః సః తత్ర నాస్తి, అన్యకాలే అన్యత్ర వర్తతే. కథం అత్ర పదార్థః తత్ర కథం దృష్టః ఇతి ఏవం చింతనం ఆరబ్ధం. తదా కాపి తత్ర అంగీకర్తవ్యా జాతా సా ఏవ క్రియా అథవా కర్మ. కర్మ ఇత్యేకం తత్వం ఆవిర్భూతం. తథా చ కర్మాపి పునః పంచవిధం ఉత్క్షేపణం అపక్షేపణం ఆకుంచనం ప్రసారణం గమనమిది. ఇతోపి బహు క్రియాః అనంతాః క్రియాః యావంతః ధాత్వర్థాః తావంత్యః క్రియాః ఉపలబ్ధాః. తర్హి సర్వేషాం అనంత క్రియాణాం ఉత్పత్తిర్భవతి ఇతి పూర్వదేశతః ఉత్తరదేశ ప్రాప్తిః యేన భవతి తదేకం కర్మ. కించిత్ భేదకల్పనార్థం ఊర్ధ్వదేశ సంయోగ సాధకం కర్మ, అధోదేశ సంయోగ సాధకం ఏకం కర్మ. శరీరస్య సమీపే ప్రాపకం కర్మ, శరీరస్య దూరే ప్రాపకం కర్మ ఏవం అన్యత్ సర్వం పాదాదీనాం సర్వేషామపి వివిధ క్రియా విశేషాణాం అపి నామ అన్యదన్యత్ నావశ్యకం గమనమితి పర్యాప్తం ఇత్యేవం పంచ కర్మాణి అత్యంత న్యూనత్వేన వక్తుం అంగీకృతాయి. అతః ఏతాన్యపి తత్వత్వేన ప్రమేయత్వేన స్వీకృతాయి. పునః చింతనేన ద్రవ్యస్య గుణస్య గుణస్య కర్మణః కర్మణః ద్రవ్యస్య ఏవం పరస్పరం భేదః కథం ఇది చింతనేన తత్తద్ధర్మ ఏవ భేదకః ఇతి అనుభూతిః జాతా. అతః ద్రవ్యే ద్రవ్యత్వం గుణే గుణత్వం కర్మణి కర్మత్వం త్రిషు అపి ఏకః ధర్మః అస్తి ఇత్యపి అనుభూతిః జాతా. తర్హి సః ధర్మః భిన్నః వా కః ఇది పునః చర్చా భవత్. అతః భిన్నః ఏవ ధర్మః ఇతి అంతే నిర్ణయః జాతః. సః నిత్యః చేత్ సః జాతిరితి पुनः अनित्यः चेत् द्रव्ये वा गुणे वा कर्मणि वा अन्तर्भवति। यः धर्मः अनित्यः धर्मः अस्माभिः स्वीक्रियते सः धर्मः द्रव्ये वा गुणे वा कर्मणि वा अन्तर्भवति। किन्तु नित्यः यः धर्मः अस्माभिरालोच्यते सः तत्र त्रिषु अपि नान्तर्भवति इति कारणतः पृथक् पदार्थत्वेन अङ्गीकर्तव्यः जातः। तथा च सः धर्मः एव जातिः इति स्वीकृतः। सा च जातिः पुनः द्विविधा जाता, परजातिः अपरजातिः इति। पराजातिः इत्युक्ते अल्पेषु अधिकेषु पदार्थेषु विद्यमाना जातिः पराजातिः, अल्पेषु पदार्थेषु विद्यमाना जातिः अपराजातिः इति एवं व्यवस्था जाता। तथा च परापररूपेण जातिरपि द्विविधा स्वीकृता। यदा जातिः द्विविधा स्वीकृता पुनः एकं स्फुरणं जातम्। आत्मा वर्तते, आत्मनि आत्मत्वं वर्तते, द्रव्यत्वमस्ति, किन्तु एकस्य पुरुषस्य आत्मा अन्यपुरुषस्य आत्मा एकः वा भिन्नः वा इति चर्चा जाता। एकस्य यः अनुभवः भवति सः एव अन्यस्य अनुभवः न भवति। अतः तस्मिन् आत्मनि विद्यमानः धर्मः अन्यः, एतस्मिन्नपि आत्मनि विद्यमानः धर्मः अन्यः। एवमेव केचन भूमेः कणाः ज्ञाताः, सर्वेऽपि कणाः भूमेः कणाः समानाः सन्ति, समानेषु कणेषु परस्परं भेदः अस्ति वा नास्ति वा इति चर्चा जाता। अतः ते एव अत्यन्त न्यूनतमपरिमाणयुक्ताः कणाः ये सन्ति ते परमाणवः इति ज्ञाताः। तेषु परमाणुषु परस्परं भेदः अस्ति वा नास्ति वा इति चिन्तनं जातम्। अतः तैः पुनः सम्यक् आलोच्य अस्ति, सर्वेषामपि भेदः अस्ति, कथं भेदकः धर्मः कः इत्युक्ते तत्तद्धर्म एव भेदकः। तत्परमाणोः धर्मः तत्परमाणुत्वम्, एतत्परमाणोः धर्मः एतत्परमाणुत्वम्, तदात्मनः धर्मः तदात्मत्वम्, एतदात्मनः धर्मः एतदात्मत्वम् इत्येवं भिन्नभिन्नाः बहवः अनन्ताः पदार्थाः अनुभूताः। तानेव विशेष नाम्ना व्यवहारः कर्तव्यः इति निश्चयः कृतः। एवं रीत्या विशेषपदार्थः अपि तत्र स्फुटः जातः। एतेषां सम्बन्ध एव परस्परं सम्बन्धः अस्ति वा न वा इति पुनः चिन्तनं जातम्। परस्परं सम्बन्धः अस्त्येव, तत् कथं निरूपयितुं शक्नुमः? निरूपयितुमेव न शक्नुमः, किन्तु अस्ति। यः अस्ति सम्बन्धः तस्यैव एकं नाम कुर्मः इति कृत्वा द्रव्यगुणयोः यः सम्बन्धः, द्रव्यक्रिययोः यः सम्बन्धः, द्रव्यजात्योः यः सम्बन्धः, गुणजात्योः यः सम्बन्धः, एवं कर्मजात्योः यः सम्बन्धः, द्रव्ये एव अवयवानाम् अवयविनां यः बन्धः सोऽपि एकः सम्बन्धः। एवं जातिव्यक्तिसम्बन्धः, विशेषाणां नित्यपदार्थानां च सम्बन्धः एकः अङ्गीकर्तव्यः। वस्तुतः एते सम्बन्धाः अनेके इति वयम् अङ्गीकुर्मः तर्हि सोऽपि महान् विशालप्रपञ्चः जायते इति कृत्वा सम्बन्धः इति एकः पर्याप्तः। अतः समवायः इति एकः पदार्थः अपि अङ्गीकृतः। एवं रीत्या षट् पदार्थानां सम्यक् अवगमनं करणीयमिति अनुभवः आगतः। एवमेव अभावस्यापि, पुनः अभावस्य चिन्तनेनापि पुनः भिन्नभिन्न अनुभवाः जातः। अभावः एकविधः न भवितुमर्हति। एकस्य पदार्थस्य उत्पत्तेः पूर्वं विद्यमानः अभावः एकः, एकस्य पदार्थस्य नाशानन्तरं विद्यमानः यः अभावः सः अपि भिन्नः। वस्तुनः सद्भावेऽपि वस्तुनः असद्भावः भवति इत्यपि एकः अनुभवः आगतः. इदानीम् एकः घटः भवति, घटः भवति किन्तु यदा एव घटः भवति घट अभावोऽपि तदा एव भवति इत्यपि अनुभवः आगतः. यतः घट एव भवति तर्हि सर्वत्र घटः दृश्येत, किन्तु सर्वत्र घटाभावः अस्ति. सः घटाभावः यत्र घटः अस्ति तत्र न दृश्यते तावदेव. अतः सर्वत्र घटाभावः अस्ति, घटसत्त्वेऽपि घटाभावः अस्ति इत्यपि एकः अनुभवः जातः. एवम् एकस्य पदार्थात् एकस्मात् पदार्थात् अन्यः पदार्थः भिन्नः. भिन्नः इत्युक्ते भेदः नाम कः इति एका चर्चा जाता. भेदः इत्युक्ते अभेदाभाव एव भेदः, भेदाभाव एव अभेदः इत्यपि एकं चिन्तनं जातं. तर्हि अभेदः इत्युक्ते न वक्तव्यः, भेदः इत्युक्ते वक्तव्यः आपतितः. घटः कलशः एकः इत्युक्ते तत्र किमपि न वक्तव्यं, किन्तु घटः पटः न इत्युक्ते न शब्दस्य अर्थः कः इति पुनः चिन्तनमागतम्. तथा च न इति शब्दस्य अर्थः कः, नास्ति इति शब्दस्य अर्थः कः, नोत्पन्नः इति शब्दस्य अर्थः कः, नष्टमिति शब्दस्य अर्थः कः इति चत्वारः चर्चाविशेषाः प्रवृत्ताः. तैः पुनः अभावोऽपि चतुर्विधः अस्ति इति अनुभूतिः प्राप्ता. अतः प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः इति चत्वारः अभावाः अपि कल्पनीयाः जाताः. एवं रीत्या षड् भावपदार्थाः, तदभावरूपः पदार्थः यः अस्ति सः अपि एकः, आहत्य सप्तपदार्थाः. एतेषाम् अवगमनेन अस्माकं तत्त्वज्ञानप्राप्तिर्भवति. सम्यक् अवगमनं कर्तव्यम्. अतः एतद् न्यायशास्त्रम् अत्यन्तम् अध्येतव्यम्. अत्र वादविषये ये अंशाः सन्ति ते सर्वेपि सर्वत्र शास्त्रे अत्यन्तम् उपयुक्ताः भवन्ति. अतः न्यायशास्त्रस्य तत्त्वं सम्यक् ज्ञात्वा इतरशास्त्राणां वृद्धिं कर्तुं शक्नुमः इति न्यायशास्त्रशैलीम् आश्रितवन्तः, न्यायशास्त्रपद्धतिम् आश्रितवन्तः सर्वेपि. एवं रीत्या न्यायशास्त्रेऽपि पुनः प्राचीनन्यायशास्त्रं नव्यन्यायशास्त्रमिति केवलं चर्चाप्रधानं, वादप्रधानं, केवलं वाग्व्यवहारप्रधानं, वादजल्पवितण्डारूप उत्तरोत्तर वचन उक्तिप्रत्युक्तिरूपं यत् व्यवहाररूपं तत्त्वमस्ति तदत्यन्तं प्रवृद्धमिति कारणतः न केवलं न्यायशास्त्रं प्रवृद्धं, न्यायशास्त्रद्वारा व्याकरणशास्त्रं प्रवृद्धम्, एवं साहित्यादिशास्त्राणि प्रवृद्धानि, एवं वेदान्तादिशास्त्राणि प्रवृद्धानि, मीमांसादिशास्त्राणि प्रवृद्धानि इति कृत्वा काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति वदन्ति. वयं केवलम् अत्र सामान्यपरिचयं वयं प्राप्तवन्तः. अतः वयं सर्वेऽपि धन्याः. नमस्कारः.